एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा भदति संविधानस्य रक्षायै संघीयताय प्रभावकारी क्रियान्वयनाय च पञ्चदलीय गठबन्धनम् निर्मितम् वर्तते। प्रधानमन्त्री देउवा पञ्चदलीय गठबन्धनेन ह्यो जनकपुर धामनी आयोजितम् मधेस प्रदेश स्तरीय मेलनम् उद्घाटयन् अवोचत। पितृ नागरिकता युथा सर्वे नेपालीन निर्वाचनानन्तरम् सहजतया नागरिकता प्राप्स्यन्ति। प्रधानमन्त्री देउवा अभाषत मार्गशीर्ष मासस्य चतुर्थ दिवसस्य निर्वाचनम् सामान्यम् नास्तीति चर्चयन् अकथयत। एतत् राष्ट्राय दिङ्निर्देशनार्थम् सम्पद्यमानम् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पूर्व प्रधानमन्त्री च पुष्पकमल दाहाल प्रचण्डः पञ्चदलीयम् गठबन्धनम् राष्ट्रिय अग्रगमने छुकानाम् अस्तीति तर्कयन् अब्रवीत्। संविधानस्य संघीयताय गणतन्त्रस्य च रक्षाय गठबन्धनमिदं निर्मितं वर्तते। अध्यक्ष प्रचण्ड गठबन्धनस्य वैपरीत्यं गत्वा विद्रोही प्रत्याशितं प्रस्तुवतो जनान् प्रत्याशितं प्रत्यावर्तयितुम् अनुरुणत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च माधव कुमार नेपाल अवदत् देशस्य जनताय संविधानस्य च आवश्यकता कारणेन गठबन्धनम् निर्मितम् अस्ति। अध्यक्ष नेपाल राष्ट्रिय सुशासनाय संविधानस्य पूर्ण क्रियान्वयनाय विकासाय गति प्रदानार्थं च गठबन्धनम् निर्मितमिति वर्णयन् अवोचत। राष्ट्रिय राजनीतिक स्थिरतायै च गठबन्धनम् आवश्यकम् वर्तते। पञ्चदलीय गठबन्धनस्य संयोजक नेपाली कांग्रेस दलस्य वरिष्ठ नेता च रामचन्द्र पौडेल अतर्कयत वर्तमान गठबन्धनम् न केवलम् सत्ताय अपितु संविधानस्य रक्षाय राष्ट्रस्य समृद्धये विकासाय च निर्मितम् वर्तते। एवमेव सत्ता गठबन्धनेन विराटनगरे आयोजितम् कार्यक्रम सम्बोधन प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा स्थिर सर्वकारम् संघटय राष्ट्रम् समृद्धि यात्रायम् अग्रे वर्धयितुम् गठबन्धनम् निर्मितम् अस्तीति समस्पष्टयत। असौ अकथयत गठबन्धनस्य विषय नेपाली कांग्रेस दलस्य अभ्यन्तरे कोऽपि विवादो नास्ति। सत्ता गठबन्धनम् च एकी भूय निर्वाचने सन्नद्धम् वर्तते। कार्यक्रमे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अब्रवीत आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानम् निर्वाचनम् अग्रगमन प्रतिगमनहरूमध्ये युद्धम् वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल अगदत गठबन्धनम् नहि सत्ता प्राप्तये प्रत्युत राष्ट्रस्य समृद्धये वर्तते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल अकथयत राष्ट्रे संस्थापितम् संघीय लोकतान्त्रिक गणतन्त्रम् सम्प्रति समाप्तम् न कोऽपि प्रभविष्यति। आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभाय प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय अधुनावधि षष्ठ्यां जनपदेषु समानुपातिका निर्वाचन प्रणाल्या पक्षस्य मतपत्राणां परिवहनम् सम्पन्नमस्ति। निर्वाचन आयोगस्य अनुसारेण यमपञ्चक पर्वण पूर्वम् अतिरिक्तानां षण्णां जनपदानां कृते मतपत्राणां परिवहनम् विधास्यते। अवशिष्टेषु मनाङ अछाम बाजुरा कालीकोट मुगु हुम्ला जुम्ला डोल्पा जनपदेषु यमपञ्चक पर्वण पश्चादेव मतपत्राणां परिवहनम् विधास्यते। अधुनावधि प्रत्यक्ष निर्वाचन प्रणाल्या पक्षस्य कृते एककोट्या एकपञ्चाशत लक्षाणां चतुर्विंशति सहस्राणां च मतपत्राणां मुद्रण कार्यम् सम्पन्नमस्ति। एतेषु प्रदेशसभानां कृते पञ्चसप्तति लक्षाणि पञ्चविंशति सहस्राणि च प्रतिनिधिसभाया कृते पञ्चसप्तति लक्षाणि नवनवति सहस्राणि च मतपत्राणि सन्ति। अधुनावधि प्रतिनिधिसभाया पक्षस्य सल्यान डोल्पा मुगु जुम्ला कालीकोट हुम्ला जाजरकोट दैलेख रूकुम पश्चिम सुर्खेत बाजुरा बझाङ डोटी दार्चुला बैतडी डडेलधुरा अछाम कैलाली कञ्चनपुर रोल्पा प्युठान दाङ अर्काखाँची गुल्मी बर्दिया नवलपरासी पश्चिम प्रभृति नाम जनपदानाम कृते मतपत्राणाम मुद्रण कार्यम् सम्पन्नमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल अज्ञापयत। निर्वाचन आयोगेन गत स्थानीय स्तर निर्वाचने प्रत्याशी भूत्वा निर्धारित समय सीमा अभ्यन्तरे निर्वाचनस्य व्यय विवरणस्य असमर्पकेभ्य समानुपातिक पक्षस्य प्रत्याशीभ्य दण्डन शुल्कस्य अर्पणाय प्रदत्त समय सीमा अभ्यन्तरे पञ्चविंशत्यधिक सतेन जनै दण्डन शुल्कम् अर्पितम् अस्ति। आयोगेन पञ्चविंशत्यधिक शतात् प्रत्याशीभ्य कोटि चतुष्टयम् चतुस्त्रिंशत् लक्षाणि पञ्चविंशति सहस्राणि च रूप्यकाणि दण्डन शुल्कस्य रूपेण प्राप्तानि सन्तीति निर्वाचन आयोगस्य समानुपातिक निर्वाचन प्रणाल्या पक्षस्य प्रवक्ता गुरू प्रसाद वाग्ले अज्ञापयत। इमे तथ्याङ्क निर्वाचन आयोगस्य सूचना प्रणाली प्रविष्टा एव वर्तन्ते। आयोगेन सर्वेषु जनपद निर्वाचन कार्यालयेषु दण्डन शुल्क अर्पणाय व्यवस्था विहित आसीत् इत्यतः इमे तथ्याङ्क वर्धितुमपि शक्नुवन्ति इति प्रवक्ता वाग्ले असूचयत्। आगामिनो मार्गशीर्ष महासस्य चतुर्थे दिवसे सम्पत् समानाय प्रतिनिधिसभाय प्रदेशसभानां च सदस्यानां निर्वाचनाय उत्कृष्ट टिकटक श्रव्यदृश्य सामग्र्या निर्मातृन् जनान् पुरस्कर्तुं निर्वाचन आयोगेन उद्घोष्टं वर्तते। निर्वाचन प्रचार प्रसार निर्वाचनाचार संहिता निर्वाचन शिक्षा प्रवृत्ति विषयान् आधृत्य उत्कृष्ट टिकटक श्रव्यदृश्य सामग्री निर्मातुम् आह्वयता आयोगेन प्राप्त उत्कृष्टां सर्वदृश सामग्रीं पुरस्कर्तुं निर्णीतं वर्तते। प्रतियोगितायां सहभागिभिः विंशति विकलात एककला बधिकी टिकटक सर्वदृश सामग्री निर्माय कार्तिकस्य पञ्चदश दिवसस्य अभ्यन्तरे प्रेषणीया भवति। आयोगेन प्राप्तानां सामग्रीणां मध्ये उत्कृष्टा पञ्च सर्वदृश सामग्र्यः सप्रशंसा पत्रं प्रतिव्यक्ति 50,000 रूप्यकै पुरस्करिष्यन्ते इति ज्ञापितं वर्तते। यम पञ्चक पर्वण अन्तर्गतम् अद्य काकपूजनम् विधीयते। उपलक्ष्येऽस्मिन् अद्य प्रातः विधिपूर्वकम् काकपूजनम् विधाय काकेभ्य बलिरूपेण खाद्यान्यानि प्रदीयन्ते। शास्त्रेषु काक यमदूतो मन्यते इत्यतः काकपूजनेन यमः प्रसिद्धतीति विश्वस्यते। काकायै विविध ध्वनिभिः अस्मान् शुभाशुभ सूचनानि सूचयन्ति इति जनविश्वासो वर्तते। मानव जीवनेन सह घनिष्ठ सम्बन्धम् स्थापयित काकस्य पूजनम् मानवस्य गुणग्राहिताय परिचयोऽस्ति। अद्यैव धन्वन्तरी जयन्ती च धन्वन्तरी पूजन पुरस्सरं सम्मान्यते। धन्वन्तरी आयुर्वेद प्रवर्तको मन्यते। यश्च भगवतो नारायणस्य अंशावतारत्वेन समाद्रियते। गृहमन्त्री बालकृष्ण खाँड कथयति सुरक्षायै पर्यटनस्य प्रवर्धनाय आर्थिक गतिविधिन् चलायमान विधातुं च सीमा प्रवेश बिन्दूनां व्यवस्थापनम् आवश्यकं वर्तते। मन्त्री खाँड ह्यः भैरवस्थाने आयोजिते कार्यक्रमे प्रतिवेशी राष्ट्राणां विरूद्धे नेपाल भूमिं प्रयुज्य सम्भावितान् गतिविधिन् रोद्धुमपि सीमा प्रवेश बिन्दूनां व्यवस्थापनस्य आवश्यकतां दर्शितवान्। मन्त्री खाँड अवोचत् नेपालस्य भूमिं प्रयुज्य प्रतिवेशी राष्ट्रद्वयस्य विरूद्धे सम्भावितान् गतिविधिन् रोद्धुं सर्वकार प्रतिबद्धोऽस्ति। श्रम वृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुमार भासते वर्तमान गठबन्धनम् समयस्य याचना अस्ति। यः अछाम जनपदस्य 64 स्थाने आयोजिते कार्यक्रमे मन्त्री कुमार अगदत् परिस्थित्या वर्तमान गठबन्धन निर्मितम् अस्ति अतः गठबन्धनमेतत् सर्वै प्रभावकारी विधेयम्। बवई नद्याम् स्नानाय गतम् किशोरीद्वयम् ह्यो निमज्ज विलुप्तमस्ति। विलुप्तयो दाङ जनपद दङ्गी शरण ग्रामपालिका द्वितीय वडा क्षेत्रस्य सिमलकुना स्थानस्य 16 वर्षीय रमा शाही सल्यान जनपद दमाचोर स्थानस्य सम्प्रति दङ्गी शरण स्थान निवासिनी 15 वर्षीय गोमा चन्दस्त तुलसीपुर स्थानीय प्रहरी कार्यालयस्य प्रहरी निरीक्षकस्य पर्वत केसी इत्यस्य अनुसारेण जनद्वयमेव स्नातुम् नदीम् गतम् आसीत्। डेंगू रोगस्य कारणेन ह्यः अतिरिक्त 1 जना मृतो वर्तते। ह्यस्तनावधि डेंगू रोगस्य कारणेन 52 जना अम्रियन्त इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। गत श्रावण मासात् ह्यस्तनावधि 43,085 च सम्भाव्य डेंगू रोगस्य रुग्णा दृष्टा सन्ति इति मन्त्रालयस्य तथ्याङ्काः सन्ति। राष्ट्रस्य 77 जनपदेषु डेंगू रोग प्रसितो स्थिति मन्त्रालयसु ज्ञापयति। भिटामिन ए पौष्टिक तत्वस्य युका नाशको सदस्य च भक्षणाय अवशिष्टाभ्य बालबालिकाभ्य पुनः औषधमेतत् भक्षयिष्यते। स्वास्थ्य जनसंख्या मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी अशैव कार्तिकस्य द्वितीय तृतीय च दिवसयो भिटामिन ए पौष्टिक तत्वस्य युका नाशको सदस्य च पायनाय अवशिष्टाभ्य बालबालिकाभ्य सप्ताहद्वयं यावत् समीपवर्तिनीं स्वास्थ्य संस्थां नीत्वा औषधमेतत् पायितुम् अनुरोधत्। सर्वकारेण प्रतिवर्ष 12 द्वयं वैशाख षष्ठी सप्तमे च दिवसयो कार्तिकस्य द्वितीय तृतीय च दिवसयश्च बालबालिकाभ्य भिटामिन ए पौष्टिक तत्त्वं युका नाशको सधम च पायमाने वर्तेते इति समाचारः।